అఖిలమిదమ ముష్య గౌరీ గురోః త్రిభువనమపి నైతి మన్యే తులాం అధివసతి సదా యదేనం జనైః అవిదిత విభవో భవానీ పతిః. అఖిలమితి అముష్య గౌరీ గురోః హిమవతః ఇదం అఖిలం త్రయాణాం భువనానాం సమాహారః త్రిభువనమపి తద్ధితార్థ ఇత్యాదినా సమాసః. పాత్రాదిత్వాత్ స్త్రీత్వ ప్రతిషేధః తులాం సామ్యం నైతీతి మన్యే యత్ యతః జనైః అవిదిత విభవః అజ్ఞాత మహిమా భవానీపతిః శివః సదా ఏనం గిరిం అధివసతి అస్మిన్ వసతి ఇత్యర్థః. ఉపాన్వధ్యాంగవసః ఇతి కర్మత్వం. అతః అయం ధర్మక్షేత్రమితి భావః. ప్రభావృత్తం స్వరశర విరతిర్నౌ సరౌ ప్రభా ఇతి లక్షణాత్. వీతజన్మజరసం పరం శుచి బ్రహ్మణః పదముపైతుమిచ్ఛతాం ఆగమాదివతమోపహాదితః సంభవంతి మతయో భవచ్ఛిదః. వీతేతి వీతే నివృత్తే జన్మజరసౌ యస్య తత్ వీతజన్మజరసం జరాయ జరసన్యతరస్యాం ఇతి జరసాదేశః. అత్ర తదంతవిదేహ ఇష్టత్వాత్ పరత్వేన స్యాదేశబాధకత్వాచ్చ తథాహి టాంగసింగసామినాస్యాః ఇతి స్యాదేశబాధనాత్. పరత్వాత్ జరసాదేశం బభాషే భాష్యకృత్ స్వయం సూత్రకారమతే యత్తు జ్ఞాపకాత్ పరబాధనం భవేత్ తదపి టాంగస్యోః న పునర్ంగసి సంభవి. మతద్వయేపి తత్తుల్యం ంగసి యత్ పూర్వబాధనం పరత్వాత్ జరసాదేశః తత్స్యాత్ స్యాదేశబాధనాత్ జ్ఞాపకం యచ్చ టాంగస్యోః యావాదేశా వినాదితి ఈకార దీర్ఘయోస్తత్ర వైయర్థ్యం తత్తు తౌ వినా ఏత్వే సవర్ణే దీర్ఘే చ రూపసిద్ధిర్భవేద్యతః వ్యర్థ సూత్రాక్షరత్యాగాత్ భంక్త్వైత జ్ఞాపకం ఫణి స్వాతంత్ర్యాత్ జరసాదేశం జగౌ పూర్వస్య బాధనాత్ సమర్థన ప్రపంచస్తు భాష్యకయ్యతయోః స్ఫుటః. ఏవంచ యదత్ర జరస ఇతి కేషాంచిత్ పాఠాంతరకల్పనం తదజ్ఞాన విజృంభితమేవ. బ్రహ్మణః పరమాత్మనః సంబంధి పరం ఉత్కృష్టం శుచి నిష్కలంకం పద్యతే ఇతి పదం స్థానం తాదాత్మ్యలక్షణం ముక్తిమిత్యర్థః. ఉపైతుం ప్రాప్తుం ఇచ్ఛతాం ముముక్షూణాం ఆగమాత్ శాస్త్రాదివ తమోపహంతీతి తమోపహాత్ అవిద్యానివర్తకాత్. అపే క్లేశతమసోః ఇతి డప్రత్యయః. ఇతః అస్మాద్గిరేహే భవం ఛిందంతీతి భవచ్ఛిదః సంసారనివర్తకాః. సత్సూద్విష ఇత్యాదినా క్విప్ మతయః తత్వజ్ఞానాని సంభవంతి ఉత్పద్యంతే క్షేత్రవిశేషస్యాపి జ్ఞానోపాయత్వాత్ ఇత్యాశయః. న కేవలం ఇయం భోగభూమిః కింతు ముక్తిక్షేత్రమపీతి తాత్పర్యార్థః. రథోద్ధతావృత్తం తల్లక్షణం రాన్నరావిఘరథోద్ధతాలగౌ ఇతి. దివ్యస్త్రీణాం సచరణలాక్షారాగాః రాగాయాతే నిపతితపుష్పాపీడాః పీడాభాజః కుసుమచితాః సాశంసం శంసంత్యస్మిన్ సురతవిశేషం శయ్యాః. दिव्येति अस्मिन् गिरौ चरणलाक्षारागैः सह वर्तन्ते ताः तथोक्ताः धेनुकपुरुषायितादिबन्धेषु स्त्रियाः पादतलस्य अधस्पर्शात् तद्रागाङ्किताः इत्यर्थः निपतिताः व्यानतकरणे स्त्रीणाम् अधोमुखत्वात् भ्रष्टाः पुष्पापीडाः कुसुमशेखराः यासु ताः तथोक्ताः शिखास्वापीडशेखरौ इत्यमरः पीडाभाजः विमर्दभाजः भङ्गिमत्यः इत्यर्थः भ्रमरपेङ्खोलितादौ सर्वतः कटिपरिभ्रमणसम्भवादिति भावः कुसुमैः चिताः कुसुमव्याप्ताः इभमार्जारादिकरणेषु तनभुजाद्यवयवानां शय्यातलस्थायित्वात् मार्दवाय कुसुमाचिताः इत्यर्थः दिव्यस्त्रीणां सम्बन्धिन्यः शेरते आस्विति शय्याः तल्पानि संज्ञायां समजनिषद इत्यादिना क्यप् रागायाते रागोद्रेके सति यः साशंसः सतृष्णः सुरतविशेषः तं जातौ एकवचनं सुरतविशेषान् इत्यर्थः शंसन्ति सूचयन्ति विवृण्वन्तीत्यर्थः अत्र लाक्षारागादिपदार्थानां सुरतविशेषशंसनं प्रति विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गमलङ्कारः यमकेन संसृज्यते जलधरमालावृत्तं म्भौ स्मौ चेत्स्याज्जलधरमाला ख्याता इति लक्षणात् धेनुकादिबन्धलक्षणं तु रतिरहस्ये न्यस्तहस्तयुगला निजेपदे योषिदेति कटिरूढवल्लभा अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिये स्वेच्छया भ्रमति वल्लभेपिया योषिदाचरति वल्लभायितं व्यानतं रतमिदं यदि प्रिया स्यात् अधोमुखचतुष्पदाकृतिः तत्कटिं समधिरुह्य वल्लभस्यात् वृषादिपशुसंस्थितिस्थितः चक्रवद्भ्रमति कुञ्चिताङ्घ्रिका भ्रामरं न जघने समुद्गते पर्वतःकटिपरिभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमूलितं भूगतस्तनयुगास्य मस्तकाम् उन्नतस्फिजमधोमुखीं स्त्रियं क्रामति स्वकरकृष्टमेघने वल्लभे करिरतं तदुच्यते प्रसारिते पाणिपादे शय्यास्पृशिमुखोरसि उन्नतायाः स्त्रियाः कट्यां मार्जारकरणं विदुः इति ग्रन्थान्तरे कान्तोत्पीडां भौ स्मौ इति वृत्तम् गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् न यशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः गुणेति जगतां महिते जगद्भिः पूजिते पूज्यमाने मतिबुद्धि इत्यादिना वर्तमाने तः तस्य च वर्तमाने इति षष्ठी अत्र हिमवती औषधयः तृणज्योतींषी नयशालिनि अधिपतौ नीतिसम्पन्ने राज्ञी श्रियः सम्पदः इव गुणसम्पदा क्षेत्रगुणसम्पत्या अन्यत्र सन्ध्यादिगुणसम्पदा परं महिमानम् उभयत्रापि प्रकाशसामर्थ्यं समधिगम्य ज्वलितुं प्रकाशितुं न विरमन्ति अविरतं ज्वलन्तीत्यर्थः अन्यत्र रात्रादावेवेति भावः कुररीगणः कृतरवस्तरवः कुसुमानतास कमलं कमलं इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः कुररीति इह अद्रौ कुररीगणः उत्क्रोशसङ्घः उत्क्रोशकुररौ समौ इत्यमरः कृतरवः कृतारवः तरवः कुसुमैः आनताः कमलं जलं सकमलं सपद्मं कमलं जलपद्मयोः इति विश्वः यद्वा कं जलम् अलम् अत्यन्तं सपद्मं वर्तते कं जले शिरसि च इत्यमरः किञ्च वरणाः द्रुमाः आवरणं यासान्ताः वरणावरणाः वरणो वरुणस्सेतुस्तिक्तशाखः कुमारकः इत्यमरः सनलदाः सोषीराः मूले स्योषीरमस्त्रियाम् अभयं नलदं सेव्यम् इत्यमरः अनलं सन्तापं द्यन्ति खण्डयन्ति शमयन्तीति अनलदाः सनलदाश्च ताः अनलदाः सिन्धवः नद्यः करिणां मुदे भवन्तीति शेषः न कुत्रापि उक्तवैपरीत्यमिति भावः सादृश्यं गतमपनित्रचूतगन्धैः आमोदं मदजलसेकजं दधानः एतस्मिन् मदयति कोकिलानलकाले लीनालिः सुरकरिणां कपोलकाशः सादृश्यमिति एतस्मिन् पर्वते अपनित्रचूतगन्धैः सादृश्यं गतं फुल्लाम्रपुष्पगन्धसदृशं मदजलसेकजम् आमोदं परिमलं दधानः बिभ्राणः अत एव लीनालिः संसक्तभृङ्गः सुरकरिणां कश्यते अनेनेति काशः कपोलानां काशः कषणस्थानं द्रुमस्कन्धादि अकाले वसन्तातिरिक्ते कालेऽपि कोकिलान् मदयति मितां ह्रस्वः इति ह्रस्वः अत्र वसन्तरूपकारणाभावेऽपि मदाख्यकार्योत्पत्तिकथनात् विभावनालङ्कारः तदुक्तं कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना इति सा च चूतगन्धैः सादृश्यमित्युपमया वा आमोदं दधान इति पदार्थहेतुककाव्यलिङ्गेन च अङ्गाङ्गिभावेन सङ्कीर्यते किञ्च कोकिलानां मदगन्धे चूतगन्धभ्रान्त्या भ्रान्तिमदलङ्कारः व्यज्यते प्रहर्षिणीवृत्तं म्नौ ज्रौ गस्त्रिदशयतिः प्रहर्षिणीयम् इति लक्षणात् सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैः नदैर्वृतममुम् मता फणवतोऽवतः रसपरा परास्तवसुधा सुधाधिवसति सनाकेति पुनश्च सनाकवनितं साप्सरस्कं नितम्बैः कटकैः रुचिरं सुनिनदैः सुघोषैः नदैः प्रवाहैः वृतम् अमुम् अमुष्मिन् गिरौ इत्यर्थः उपान्वध्याङ्वसः इति कर्मत्वम् अवतः अधोलोकरक्षकस्य फणवतः नागराजस्य मता इष्टा मतिबुद्धि इत्यादिना वर्तमाने तः तद्योगात् षष्ठी रसेन स्वादेन परा उत्कृष्टा परास्तवसुधा त्यक्तभूलोका सुधा अमृतं चिरम् अधिवसति अतः अन्यत्र भूमण्डले कुत्रापि सुधा नास्तीत्यर्थः मेरुप्रतिभटः अयं गिरिरिति भावः अत्र प्रस्तुतविशेषणसामर्थ्यात् अप्रस्तुतमेरुप्रतीतेः समासोक्तिः अलङ्कारः स च यमकेन संसृज्यते जलोद्धतगतिः वृत्तम् रसैर्जसजसा जलोद्धतगतिः इति लक्षणात् श्रीमल्लताभवनमोषधयः प्रदीपाः शय्यानवानि हरिचन्दनपल्लवानि अस्मिन् रतिश्रमनुदश्च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः श्रीमदिति अस्मिन् अद्रौ श्रीमत् समृद्धिमत् लता एव भवनम् ओषधयः तृणज्योतींष्येव प्रदीपाः नवानि हरिचन्दनपल्लवानि सुरतरुकिसलयान्येव शय्याः हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे इति विश्वः रतिश्रमनुदः सुरतश्रमहारिणः सरोजवाताश्च सुरसुन्दरीभ्यः क्रियाग्रहणात् चतुर्थी दिवः दिवम् अधीगर्थ इत्यादिना कर्मणि षष्ठी स्मर्तुं न दिशन्ति विस्मारयन्तीत्यर्थः स्वर्गादपि अतिरिच्यते असौ इति भावः अत्र पूर्वार्धे रूपकत्रयं स्फुटमेव ईशार्थमम्भसि चिराय तपश्चरन्त्याः यादो विलङ्घन विलोल विलोचनायाः आलम्बताग्रकरमत्र भवो भवान्याः स्युतं निदाघ सलिलाङ्गुलिना करेण ईशार्थमिति ईशाय इति ईशार्थं यथा तथा इति क्रियाविशेषणम् अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या चिराय चिरम् अम्भसि तपश्चरन्त्याः अत एव यादोविलङ्घनविलोलविलोचनायाः जलजन्तुविघट्टितचकितेक्षणायाः तपसोऽपि अधिकं दृष्ट्यैव विलोभयन्त्याः इति भावः यादांसि जलजन्तवः इत्यमरः भवान्याः भवपत्न्याः प्रयोगकालापेक्षोऽयं निर्देशः इन्द्रवरुणभव इत्यादिना ङीष् आनुगागमश्च करैकदेशस्यापि करत्वात् अग्रश्चासौ करश्चेति समानाधिकरणे समासः अत एव वामनः हस्ताग्राग्रहस्तयोः गुणगुणिनोः भेदाभेदौ इति तम् अग्रकरं भवः शिवः स्योतन्निदाघसलिलाङ्गुलिना स्रवत्स्वेदाङ्गुलिना इति सात्विकोदयोक्तिः करेण अत्र गिरौ आलम्बत गृहीतवान् अत्र अद्भुतातीतवृत्तान्तस्य प्रत्यक्षवदभिधानात् भाविकालङ्कारः अतीतानागते यत्र प्रत्यक्षवदलक्षिते अत्यद्भुतार्थकार्यत्वात् भाविकं तदुदाहृतम् इति लक्षणात् वसन्ततिलकावृत्तम् उक्ता वसन्ततिलका तभजा जगौगः इति तल्लक्षणात् येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे व्यवर्त तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति समन्दराद्रिः येनेति देवाश्च असुराश्च तैः देवासुरैः येषाञ्च विरोधः शाश्वतिकः इति नैकवद्भावः येषाञ्च विरोधः शाश्वतिकः इति न एकवद्भावः येषां यतः कार्यतः एव विरोधः न गोव्याघ्रादिवत् शाश्वतिकः इत्याहुः येन मन्दराद्रिणा मन्थदण्डीकृतेनेति भावः अपवित्थसलिलः क्षिप्तजलः अत एव स्फुटं नागसद्म पातालं यस्मिन् सः अम्बुनिधिः अमृतं ममन्थे मथितः मथ्नातेः द्विकर्मकत्वात् दुहादित्वादप्रधाने कर्मणि लिट् अहिपतेः मन्थगुणीकृतस्य वासुकेः इत्यर्थः मन्थानं मन्दरं कृत्वा वेत्रं कृत्वा तु वासुकिम् इति भारतवचनात् व्यावर्तनैः वेष्टनैः आहिताङ्कः कृतचिह्नः सः अयं मन्दराद्रिः खम् आकाशं व्यालिखन् व्यापाटयन् इव विभाति अत्र औन्नत्यानुपादानेनैव खलेखनोत्प्रेक्षणात् अनुपात्तगुणनिमित्ता क्रियास्वरूपोत्प्रेक्षा